गणानां त्वा गणपतिकुं हवामहे कविं कवीनां उपमश्रवस् तस्मै श्रीगुरवे नमः।
Yeah.